तद्रुद्राय प्रचेदसे मेढुष्टमायतव्यसे वोचे मशन्त मम हृदे यथा नो अदीतेः करत् पश्वे नृभ्यो यथा गवे यथा तोकाय रुद्रियम् यथा नो मित्रो वरुणो यथा रुद्रश्चिकेदति यथा विश्वे सजोषसः गातपोतिम् मेधपोतिम् रुद्रञ्जलाशभेषजम् तच्छञ्योऽस्मिनमीमहे यःशुक्र इव सूर्यो हिरण्यमिव रोचते श्रेष्ठो देवानाम् वसुः शन्नः करत्यर्वते सुगम् मेषाय मेष्ये नृभ्यो नारिभ्यो गवे अस्मे सोमश्रियमधिनिधेहि शतस्य नृणाम् महिश्रवस्तु विनृम्णम् मानः सोमपरिबाधो मारातयो जुहुरन्त आन इन्दो वाजे भज यास्ते प्रजा अमृतस्य परस्मिन्नामन्नृतस्य मूर्धानाभा सोमवेन आभूषन्ति सोमवेदः इमा रुद्रायो तपसे कपर्दिने क्षयद्वीराय प्रभो रामहे मतीः यथा शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् रामे अस्मिन्नानातुरम् मृळानो रुद्रोतनो मयस्कृत्यक्षयद्वीराय नमः साविधे मते यच्चञ्चयोश्च मनुराये ये पिता तदश्याम तव रुद्रप्रणीतिषु अश्याम ते सुमतिम् देव यज्ञया क्षयद्वीरस्य तव रुद्रमीढ्वः सुम्नायन्दिद्विषो अस्माकमाचरारिष्टवीराजुहवामते हविः त्वेषम् वयम् रुद्रम् यज्ञसादम् वङ्कुम् कव्यमवसे निवयामहे आरे अस्मद्दैव्यम् हेळो अस्य तु सुमतिमिद्वयमस्यावृणीमहे दिवो वराहमरुषङ्गपर्जनम् त्वेषम् रूपम् नमसा निवयामहे हस्ते बिभ्रद्वेषजावार्याणि शर्ववरमच्छर्दिरस्मभ्यञ्यं सत इदम् पित्रे मरुतामुच्यते वचः स्वादो स्वादीयो रुद्राय वरदानम् रास्वाचनो अमृतमर्तभोजानन्त्मने तोकायतनयाय मृळा मानो मान्तमुतमान अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधीः पितरम् मोतमातरम् मानः प्रियास्तन्वो रुद्ररीर्षः मानस्तोकेतनाये मान आयौ मानो गोषु मानो अश्वेषु रीर्षः वीरान्मानो रुद्रवामितो वरीर्हविष्मन्तस्तदमित्वाहवामहे उपते स्तोमान् पशुपा इवाकारम् रास्वापितरमरुताम् सुमनमस्मे भद्राहिते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे आरेते गोघ्नमुतपूरुषघ्नाम् क्षयद्वीरसुम्नमस्मे ते अस्तु मृळा च नो अधि च ब्रूहिते वाधा च नः शर्म यच्छद्विबर्हाः अवोचाम नमो अस्मा अवस्यवशृणोतु नो हवम् रुद्रो मरुत्वान् तन्नो मित्रो वरुणो मामहन्तामदीति सिन्धुः पृथिवी उत द्यौः आते पितरमरुताम् सुम्नमे तु मानः सूर्यस्य सदृशो युयोथाः अभिनो वीरो अर्वत्यक्षमेत प्रजाये महि रुद्रप्रजाभिः त्वादत्तेभिः रुद्रशन्तमेभिश्चतम् विमा अशीयभेषजेभिः व्यास्मद्वेषो वितरम् व्यम्भो व्यमीवाश्चातयस्वाविषूचीः श्रेष्ठो जातस्य रुद्रश्रियासि तवस्तमस्तवसाम् वज्रबाहो परषीणः पारमम् वासस्वस्ति विश्वा अभीतिरपसो युयोधि मात्वारुद्रचुक्रुधामानमोभिर्माजुष्टोति वृषभमासौति उन्नो वीराम् अर्पय भेषजेभिर्भिषक्त मन्त्वा भिषजाम् शृणोमि हवीमभिर्हवते यो हविर्भिरवस्तो मेभी रुद्रन्दिशीया ऋदूदरस्तु हवो मानो अस्त्यैव भृस्तु शिप्रोरिरधन्मनायै उन्माममन्दवृषभो मरुत्वान्त्वक्षीयसावयसानाधमानम् गृणीवच्छायामारपा अशीयाविवासेयम् रुद्रस्य सुम्नम् क्वास्यते रुद्रमृळया कुरहस्तो यो अस्ति पेषजो जराशः अपभरतारपासो दैव्यस्याभीनुमावृषभचक्षमीथाः प्रबभ्रवे वृषभायश्विति चे महो महीम् सुष्टुतिमीरयामि नमस्याकल्मलीकिनन्नमोऽभिर्गृणीमसि त्वेषम् रुद्रस्य नाम स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुःशुक्रेभिः पिपिशे हिरण्यैः ईशानादस्य भुवनस्य भूरेर्नवा ऊयोषद्रुद्रादस्वरीयम् अर्हन् बिभर्षि सायकानि धनवार्हन् निष्कञ्योजतम् विश्वरूपम् अर्हन् निदन्दयसे विश्वमभुवन्नवा ओजीयो रुद्रत्वरस्ति स्तुहि श्रुतम् करतसरम् युवानम् मृगन्न भीममुपहत्मुग्रम् मृळाजरित्रे रुद्रस्तवानोऽन्यन्ते अस्मन्निव पन्तु सेनाः कुमारश्चित्पितरम् वन्दमानम् प्रति नानाम् रुद्रोपयन्तम् भूरेर्दातारम् सत्पतिम् गृणीषे स्तुतस्त्वम् भेषजारास्यस्मे यावो भेषजामरुतश्रुचीनि याशन्तमावृषणो यामायो भूत् यानि मनुरव्रोणीतापि तानस्ताशञ्चयोश्च रुद्रस्य वश्मि परीणो हेति रुद्रस्य वृज्याः परित्वेषस्य तुर्मतिर्महीगात् अवस्थिरामघवर्व्यस्तनुष्वमीर्वस्तोकायतनयायमृळा एवा बभ्रो वृषभचेकितान यथा देवनहरुणीषेरहंसि हवनश्रुन्दो रुद्रे हवोदिबृहद्वदेमविरते सुवीराः इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेष वे देवाय स्वधाव्ने अषाढाय समानाय वेधसे तिग्मायूधाय भरता शृणोतु नः स हि क्षयेण क्षम्यस्य जनमानः साम्राज्येन दिव्यस्य चेतति अवन्नवन्तीरुपो नो दुरश्चरानमीवो रुद्रजासु नो भव याते दिद्युदव सृष्टादिवस्परिक्ष्मया चरति परिसावृणक्तुनः सहस्रन्ते स्वपि वातपेषजामानस्तोकेषु तनयेषु रीरिषः मानो वदी रुद्रमापरादामाते भूमप्रसीतौ हीळितस्य आनो भज बर्हिषि जीवशंसे यूयम् पात स्वस्तिभिः सदा नः।